रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। आगामिनी आयव्ययके कर्णाली प्रदेशाय प्राथमिकताम् प्रदाय आयव्यय कम्बिनि योङ्तुम् संघीय संसदि कर्णाली प्रदेशात् प्रतिनिधित्वम् कुर्वद्भिः चतुर्दशभिः सांसदैः प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः अभियाचितो वर्तते। सांसदः कर्णाली प्रदेशस्य कृषि उत्पादनानां वनस्पत्यौषधानां लघुद्योगानां च विस्ताराय व्यवस्थितै च कर्णाली लघुवित्त कोषागारस्य स्थापनेन सह सौविध्यपूर्णस्य ऋणस्य प्रदानार्थं नीतिगतं निर्णयं विधातुम् अनुरुन्धन्। इमे कर्णाली प्रदेशस्य विपन्नता वृत्तिहीनतयोः न्यूनीकरणाय विशेष कार्यक्रमाभियानस्य सञ्चालनाय पञ्चाब्जानां रूप्यकाणां व्ययम् आवण्टयितुम् अयाचन्त। सांसदाः नेपालस्य वर्षद्वयपूर्वस्य जनगणनायाः तथ्याङ्कानामनुसारेण कर्णाली प्रदेशे निरपेक्ष विपन्नता प्रतिशतम् 0.9% वार्षिक आयश्च अमेरिकीय डलर मुद्रायाम् प्रतिव्यक्ति केवलम् 44.9% अस्तीति भाषमाणाः कर्णाली प्रदेशस्य विकासाय दीर्घकालिक महत्वस्य योजनासु कृष्युत्पादने वृत्त्युपार्जन वृद्धौ च बलम् दातुमपि अनुरुद्धवन्तः एवं याचनाः पुरस्कुर्वत्सु सांसदेषु जनार्दन शर्मा प्रभाकरः, हृदयराम थानी, दिक्पाल कुमार शाही, महेन्द्र बहादुर शाही, अमर बहादुर थापा, कान्तिका सेजुवाल, मैना कार्की, धनबहादुर बुढा, ऐन बहादुर शाही, सीता कुमारी राणा, सूर्य कुमारी श्रेष्ठ, छिरिङ डुण्डुल लामा भोटे, कल्पना मिया, चन्द्रबहादुर विश्वकर्मा च सन्ति। उपप्रधान गृहमन्त्री नारायण काजी श्रेष्ठ कथयति विपन्न जनानां पीडकान् चक्रवृद्धि धनग्राहकान् जनान् विदेह सीमाया मानेतुं सर्वकारः सक्रियतया कार्यरतो वर्तते। ह्य सर्लाई जनपदस्य बागमती नगरपालिकायाः एकादशवडा क्षेत्रवर्तिन्यः निदर्शन पहरिवसतेः हस्तान्तरण कार्यक्रमे मन्त्री श्रेष्ठः अवोचत् राजनीतिकोपागमनस्य आधारेण कोऽपि चक्रवृद्धि धनग्राहकः उन्मुक्तिम् नाप्नोति। असौ भ्रष्टाचारस्य नियन्त्रणाय वर्तमान सर्वकारः शून्य सहनशीलतायाः सिद्धान्तेन अग्रे वर्धितो स्थिति अगदत्। उपप्रधान रक्षामन्त्री पूर्णबहादुर खड्का राष्ट्रस्य राजनैतिक परिवर्तने सृष्टिणां साहित्यकाराणां अतोलनीयम् योगदानम् वर्तते इति कथयति। नेपाली लेखक संघेन प्रथम लेखक दिवसस्य अवसरे ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे वरिष्ठ साहित्यकारम् वैरागी काइलाभिदम् एकलक्षणाम् पुरस्कारेण सममानयन् उपप्रधानमन्त्री खड्का अवासत। राष्ट्रे विद्यमानायाः अवस्थायाः अव्यवस्थायाः अन्ताय अर्थतन्त्रस्य उन्नयनस्य समाभयम् प्रतिकर्तुम् च वर्तमान सर्वकारः प्रतिबद्धो वर्तते। कार्यक्रमे संस्कृति पर्यटन नारीको डयन मन्त्री सुदन किराँती अवोचत् लेखकेषु सत्ता शक्तिभ्याम् जनतायै च लेखनस्य प्रवृत्तिद्वयम् दृष्टम् वर्तते। संचार सूचना प्रविधि मन्त्री रेखा शर्मा कथयति सर्वकारेण स्वल्पेव समये महत्वपूर्णानि कार्याणि विहितानि सन्ति। दाङ जनपदस्य राप्ती ग्रामपालिकायाम् गतदिने आयोजिते कार्यक्रमे नेपाल सर्वकारस्य प्रवक्ता च मन्त्री शर्मा अकथयत् सर्वकारस्य कलंकनेच्छुकैर् जनैः सर्वकारेण ज्येष्ठ नागरिकाणाम् भरणम् निरस्यमानमस्तीति उक्त्वा प्रवादः विस्तार्यमाणो वर्तते। मन्त्री शर्मा कृषि प्रारम्भकालात् प्रागेव कृषकेभ्यो रासायनिक मलम् प्रापयितुम् सर्वकारः प्रतिबद्धोऽस्तीति अज्ञापयत्। असौ अब्रवीत् चक्रवृद्धि धनग्राहकेभ्यः पीडितानाम् जनानाम् समस्यायाः स्थायि समाधानाय विधिम् निर्माय समाधान प्रक्रियायाम् सर्वकारो वर्तते। परराष्ट्रमन्त्री नारायण प्रकाश साउदः वदति विकासाय सर्वैः राजनीतितः उपरि उत्थातव्यम्। कञ्चनपुरस्य कृष्णपुर नगरपालिकायाम् ह्य आयोजिते कार्यक्रमे परराष्ट्रमन्त्री साउद गेटास्थाने दशरथ चन्द चिकित्सा विश्वविद्यालयस्य सञ्चालनाय सर्वकारेण कार्यम् अग्रेसारितमस्तीति असूचयत्। राष्ट्रिय सभायाः अध्यक्षः गणेश प्रसाद तिमल सिन्हा निगदति आधुनिकतायाः सैव मौलिक कला संस्कृत्योः संरक्षणाय प्रवर्धनाय च स्तरत्रयस्यैव सर्वकारैः ध्यानम् देयम्। राष्ट्रिय लोक भजन चुड्का संरक्षण प्रतिष्ठान नेपालस्य तृतीय केन्द्रीय महाधिवेशनम् ह्य बुटवल स्थाने उद्घाटयन अध्यक्ष तिमल सिन्हा कला संस्कृत्यो आयाजनेन जीवन निर्वाहेण च सह संयोजितयो सत्यो नूतन संतते सहभागिता वर्धिष्यते इति विचारम व्यक्तवान। कार्यवाहक राष्ट्रपति रामसाहेब प्रसाद यादव कथयति नेपाले सामाजिकम सांस्कृतिकम च सद्भावम स्थापयितुम राष्ट्रिय विभूतेः सीतायाः महत्वपूर्ण भूमिका वर्तते। मिथिला संस्कृति समाज नेपालेन ह्य काष्ठमण्डपे आयोजिते एतद् विक्रम वर्षीय जन्मोत्सव समारोह कार्यक्रमे असौ सीता न केवलम आदर्श नार्याः रूपेण अपितु नेपाले एकतायाः सन्धरणस्य संयुक्त प्रतीकस्य रूपेण मन्तव्येति प्रत्यपादयति। कार्यवाहक राष्ट्रपति यादव सामाजिक सांस्कृतिक रूपेण नवीनायाम वर्धनस्य कार्यम सीता जन्मोत्सवेन वीतं वर्तते एतेन च राष्ट्रिय एकतायाः भ्रातृत्वस्य च वातावरणं निर्मितम् अस्ति इति उदयरयत। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली राष्ट्रस्य अर्थतन्त्रस्य ह्रासावस्था चिन्तायाः विषयोस्तीति चर्चयन् अर्थतन्त्रस्य सुधाराय आत्मभिः प्रवर्तितमस्तीति भासते। पाँचथ जनपदीयेन नेकपा एमाले दलेन ह्य आयोजितम् अग्रणी कार्यकर्तृ मेलनम् सम्बोधयन् अध्यक्ष ओली अर्थतन्त्रस्य अनुकूल दिशि प्रत्यावर्तनाय एतदर्थं जनतायाः सहयोगः प्राप्तये च आत्मभिः प्रवर्तितमस्तीति अवोचत। एमाले संसदीय दलस्य उपनेता सुभाष चन्द्र नेवांग अवदत् लोकतान्त्रिक विधिना स्वस्य असन्तुष्टिः सम्बोधयितुं शक्यते। राष्ट्रिय स्वतन्त्र दलस्य उपसभापतिना डोल प्रसाद अर्यालेन संसदीय दलस्य नेतृपदा त्यागपत्रम प्रदत्तम वर्तते। ह्य उपविष्टे संसदीय दलस्य उपवेशे नेत्रा अर्यालेन संसदीय दलस्य उपनेतुः विराज भक्त श्रेष्ठस्य समक्षम त्यागपत्रम अर्पितमिति राष्ट्रिय स्वतन्त्र दलेन ज्ञापितम वर्तते। दलस्य संसदीय दलस्य उपवेशः स्व उपवेक्षति उपवेशेन दलस्य सभापतिम् रविलामे छानेविदम् संसदीय दलस्य नेतारं प्रचेतुं पूर्व कार्यं विहितम् अस्ति इति च दलस्य नेता अर्यालः अज्ञापयत। नेपाली कांग्रेस दलस्य महामन्त्री गगन कुमार थापा कथयति नेपाली कांग्रेस दलस्य आभ्यन्तर समस्याम् अन्विष्य तस्याः समाधानम् आवश्यकम् वर्तते। ह्य काष्ठमण्डपे आयोजिते काष्ठमण्डप चतुर्थ निर्वाचन क्षेत्रस्य प्रथम प्रदेशीय वार्षिक प्रदेश मेलने महामन्त्री थापा एवं अगदत। पूर्वार्थ मन्त्री डाक्टर युवराज खतिवडा कथयति देशस्य अर्थतन्त्रम् दुर्बलायमानम् सदपि सुधारहरायाम् अवस्थायाम् वर्तते। संयुक्त राज्यसंघ विकास कार्यक्रमेण बागमती प्रदेश सभायाः सदस्यानां कृते ह्य हेटौडा स्थाने आयोजिते स्थिर विकासस्य लक्ष्य प्राप्तये स्वत व्यवस्थापनाय प्रदेश सभा सदस्यानां भूमिकया सम्बद्धे अभिमुखीकरण कार्यक्रमे नेपाल राष्ट्र कोषागारस्य पूर्वाधि शासकश्च डाक्टर खतिवडा अवोचत अर्थतन्त्रम् गतिशीलम् विधातुम् अर्थतन्त्रस्य विषये प्रसृतः प्रवादः समापनीयः। असौ अर्थतन्त्रम् संकटोन्मुखम् वर्तते नेपालोपि श्रीलंकायाः अवस्थायम् प्राप्तोन्मुखोस्तीति निगद्य प्रसृतेन प्रवादेन आर्थिक क्षेत्रे शंकायाः वातावरणम् सृष्टमस्तीति चर्चयन् अवोचत एवं प्रचारे अवरोधिते सति नेपाले निवेशनम् प्रवेशयितुम् शक्षते। कोरोना संक्रान्तस्य एकस्य जनस्य ह्य उपचारस्य क्रमे मृत्युरभवदिति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। मन्त्रालयस्य अनुसारेण ह्य 138,702 च जनेषु कोरोना विषाणो परीक्षणे विहिते 150 जनेषु कोरोना संक्रमणम् पुष्टिभूतम् वर्तते। सम्प्रति आराष्टम् 161,703 कोरोना विषाणो सक्रिय संक्रान्ता जना सन्तीति मन्त्रालयेन ज्ञापितम् वर्तते। एतेषु संस्थागत कान्तवासेषु 27, सघनोपचार कक्षेषु 8, कृत्रिम श्वास प्रश्वासोपकरणेषु 1 जना उपचाररता सन्ति। झापा जनपदस्य दमक स्थाने सम्प्रत्येव संचालिताय कियोच दमक बाल चिकित्सालयाय नेपाली कांग्रेस दलस्य नेत्रा पूर्व मन्त्रीणाचा डाक्टर मिनेन्द्र रिजालेन 50,00,000 रूप्यकाणि प्रदत्तानि सन्ति। इति समाचारः।